अथ अष्टमोऽध्यायः प्रथमः पादः सर्वस्य द्वे तस्य परमाम्रेडितम् अनुदात्तञ्च नित्यवीप्सयोः परेर्वर्जने प्रसमुपोदः पादपूरणे उपर्यध्यधसः सामीप्ये वाक्यादे रामन्त्रितस्यासूया सम्मतिकोपकुत्सनभर्त्सनेषु एकं बहुव्रीहिवत् आबाधे च कर्मधारयवदुत्तरेषु प्रकारे गुणवचनस्य अकृच्छे प्रियसुखयोरन्यतरस्यां यथा स्वे यथा यथम् द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु पदस्य पदात् अनुदात्तं सर्वमपादादौ आमन्त्रितस्य च युष्मदस्मदोषष्ठी चतुर्थी द्वितीयास्थयोर्वान्नावौ बहुवचनस्य वस्नसौ ते मयावेकवचनस्य त्वामौ द्वितीयायाः न च वाहाहैव युक्ते पश्यार्थैश्चानालोचने सपूर्वायाः प्रथमाया विभाषा तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययो तिङ्गतिङः न लुट् निपातैर्यद्यदिहन्त कुविन्नेच्चेच्चण्कच्चिद्यत्र युक्तं नः प्रत्यारम्भे सत्यं प्रश्ने अङ्गाप्रातिलोम्ये हि च छन्दस्यनेकमपि साकाङ्क्षं यावद्यथाभ्यां पूजायां नानन्तरम् उपसर्गव्यपेतञ्च तु पश्य पश्यताहैः पूजायाम् अहो च शेषे विभाषा पुरा च परीप्सायाम् नन्मित्यनुज्ञैषणायाम् किङ्क्रियाप्रश्नेनुपसर्गमप्रतिषिद्धम् लोपे विभाषा एहि मन्ये प्रहासे लृट् जात्वपूर्वं किं वृत्तञ्च चिदुत्तरम् आहो उताहो चानन्तरं शेषे विभाषा गत्यर्थलोटालृण्न चेत्कारकं सर्वान्यत् लोट्च विभाषितं सोपसर्गमनुत्तमं हन्त च आम एकान्तरमामन्त्रितमनन्तिके यद्धि तु परं छन्दसि च न चिदिव गोत्रादितद्धितां व्रेडितेष्वगतेः चादिषु च वा योगे प्रथमा हेति क्षियायाम् अहेति विनियोगे च चाहलोप एवेत्यवधारणं चादिलोपे विभाषा वैवावेति च छन्दसि एकान्याभ्यां समर्थाभ्यां यद्वृत्तान्नित्यं पूजनात् पूजितमनुदात्तं काष्ठादिभ्यः सगतिरपितिं कुत्सने च सुप्यगोत्रादौ गतिर्गतौ तिङि चोदात्तवति आमन्त्रितं पूर्वमविद्यमानवत् नामन्त्रिते समानाधिकरणे सामान्यवचनं विभाषितं विशेषवचने सर्वस्य बहुवचनस्य शेषे हेति चतुर्दश इति प्रथमः पादः।